स्वाविष्टा पुरुष इति तत्प्रेक्षण मुखः सहस्त्राक्षो भुक्त्वा फलमनुषैशास्तितमुत स्वयं शुद्धं शान्तं निरवधिसुखं नित्यमचलम् नमामि श्रीविष्णुं जलधितनया सेवितपदम् अनन्तं सत्सत्यं भवभयहरं ब्रह्म परमं सदा भातं नित्यं जगदिदमितः कल्पितपरम् मुहुर्ज्ञानं यस्मिन् रजतमिव शुक्तौ ब्रह्महरम् नमामि श्रीविष्णुं जलधितनया सेवितपदम् मतौ यत्सद्रूपं मृगयति बुधो तन्निरसना न रज्जौ सर्पोऽपि मुकुरजठरे नास्ति वदनम् अतो पार्थं सर्वं न हि भवति यस्मिश्च तमहं नमामि श्रीविष्णु जलधितनया सेवितपदम् भ्रमद्धि विक्षिप्तेन्द्रियपथमनुष्यैर्हृदि विभुं नय वै वेदस्वेन्द्रियमपि वसन्तं निजमुखम् सदा सेव्यं भक्तैर्मुनिमनसि दीप्तं मुनिनतम् नमामि श्रीविष्णुं जलधितनया सेवितपदम् बुधाय तद्रूपं नहि तु निर्गुणममलं यथा तथा ये व्यक्तं ते सततमलकङ्कं श्रुतिनुतम् यदाहु सर्वत्रास्खलितगुणसत्ताकमतुलम् नमामि श्रीविष्णुं जलधितनया सेवितपदम् लयादौ यस्मिन् य विलयमपि उद्यत् प्रभवति तथा जीवोपेतं गुरुकरुणया बोधजननि गतं चात्यन्तात् ब्रजति सहसा सिन्धुनदवत् नमामि श्रीविष्णुं जलधितनया सेवितपदम् जडं सङ्घातं यन्निमिपलवलेशेन चपलम् यथा स्वं स्वं कार्यम् प्रथयति महामोह जनकम् मनोवाग् जीवानां न निविशति यं निर्भयपदम् नमामि श्रीविष्णुं जलधितनया सेवितपदम् गुणाख्याने यस्मिन् प्रभवति न वेदोऽपि नितरम् निषिद्ध्यात् वाक्यार्थैश्चकितचकितं योऽस्य वचनम् स्वरूपं यद्गत्वा प्रभुरपि च तूष्णीं भवति तम् नमामि श्रीविष्णुं जलधितनया सेवितपदम्।